इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अस्य मासस्य नवमं संस्करणम् अद्य मन की बात इत्यस्मिन् कार्यक्रमे जनैः स्वविचारान् विनिमयं करिष्यति। इदं मासिक रेडियो कार्यक्रमस्य 17th संस्करणं भविष्यति। कार्यक्रमस्य प्रसारणं आकाशवाण्यां, दूरदर्शने, AIR न्यूज वेव फलके, न्यूज ऑन AIR इति दूरभाषतन्त्रांशे च भविष्यति। अयं कार्यक्रमः आकाशवाणी, दूरदर्शन, प्रधानमन्त्री कार्यालय, सूचना प्रसारण मन्त्रालयानां यूट्यूब वाहिनीष्वपि द्रष्टुं शक्यते। हिन्दी प्रसारणानन्तरं क्षेत्रीय भाषासु च अस्य कार्यक्रमस्य प्रसारणं भविष्यति। श्रीनगर जम्मू राष्ट्रिय राजमार्गः NH 44 इति हिमसञ्चयेन पिहितः अस्ति। यातायात विभागस्य प्रवक्ता उक्तवान् यत् राजमार्गे उभयपक्षतः यातायात सुविधा स्थगितास्ति। प्रातःकाले मार्गस्थितिम् अवलोक्य यातायात पुनर्स्थापनस्य समीक्षा भविष्यति। अयं राजमार्गः दक्षिणकश्मीरस्य शोपियान मण्डलं जम्मूक्षेत्रस्य राजौरी पूंछ मण्डलेन सह संयोजयति। श्रीनगर लेह राजमार्गः मुगल मार्गः चापि अद्य हिमसञ्चयेन पिहितः सन्ति। भारतेन 23-24-2000 वर्षयोः अधुना पर्यन्तं सर्वाधिकं कृष्णाङ्गारोत्पादनं दृष्टम्। 23-24-2000 अखिले हि भारते कृष्णाङ्गारस्य उत्पादनं 790.96 मिलियन् टन् परिमितम् आसीत्। तत्रैव विगतवर्षे 93.89 मिलियन् टन् परिमितम् आसीत्, यस्मिन् प्रायः 11.17% यावत् वृद्धिः जाता। कृष्णाङ्गारमन्त्रालयेन सूचितं यत् देशेन अस्य मासस्य 15 दिनांकपर्यन्तं देशे प्रायः 63.91 मैट्रिक टन् परिमितं यावत् कृष्णाङ्गारस्य आपूर्तिः कृतास्ति। भारतीय अन्तरिक्ष अनुसन्धान संघटनं श्वः स्वस्य अन्तरिक्ष डॉकिंग प्रयोगस्य स्पैडेक्स इत्यस्य प्रारम्भं करिष्यति। एकस्मिन् साक्षात्कारे अन्तरिक्ष राज्यमन्त्री डॉ जितेन्द्र सिंहः अवदत् यत् इसरो इत्यस्य वर्षान्तभियानस्य ऐतिहासिकं भविष्यति। अनेन प्रयोगेन अन्तरिक्षे उपग्रहद्वयं डॉकिंग इति विलीनीकरणस्य दुर्लभं पराक्रमं अन्वेषयिष्यति। डॉक्टर सिंहः अवदत् यत् स्पैडेक्स इत्यनेन अभियानेन भारतस्य अन्तरिक्ष डॉकिंग इत्यस्मिन् विषये निपुणतां प्राप्तुं समर्थानां राष्ट्राणाम् अनन्य श्रेण्यां प्रवेशः भविष्यति। हिमाचलप्रदेशे बहुषु क्षेत्रेषु हिमपातः वृष्टिः च सञ्जायते। किन्नौरजनपदस्य लोकप्रिय पर्यटनस्थले चितकुले बृहन्मात्रिक हिमपातः सञ्जातः। लाहौलस्पीति इत्यस्य क्षेत्रस्य उच्चतम पर्वतीयस्थलेषु भीषण हिमपातश्च सञ्जायते। प्रियाः श्रोतारः, संस्कृतजगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः अद्य मध्याह्ने 12:30 वादनतः